एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः सर्वकारेण एमसीसी नामधेयायाः अमेरिका देशीय सहयोग परियोजना संविधायाः अनुमोदनाय सहयोगं कुर्वद्भ्यः सत्तागठबन्धनस्य दलेभ्यः प्रमुख प्रतिपक्षिणे नेकपा एमाले दलाय च धन्यवादः ज्ञापितो वर्तते। सिंहप्रासादे ह्यः आयोजिते पत्रकार सम्मेलने नेपाल सर्वकारस्य प्रवक्ता च संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की अवोचत् नेपालस्य भूमिः प्रतिवेशी राष्ट्रस्य विरूद्धे प्रयोक्तुं न दीयते। मन्त्री कार्की कस्यापि मित्र राष्ट्रस्य विरूद्धे नेपाली भूमिः प्रयोक्तुं न दीयते इति सर्वकारस्य प्रतिबद्धता स्थिति समस्पष्टयत्। मन्त्री कार्की विभिन्नानां प्रसारण प्रणालीनाम् आयोजनानां कृते भूमिप्राप्तेः प्रारम्भिक कार्यस्य च संचालकम् अधिकारिणं निर्धारयितुं फाल्गुनस्य षोडशे दिवसे उपविष्टेन मन्त्रिपरिषद उपवेशेन निर्णीतमिति ज्ञापितवान्। सर्वकारेण विशेष न्यायालयस्य अध्यक्षे पाटनवर्तिनः उच्चन्यायालयस्य न्यायाधीशः श्रीकान्त पौडेलः नियुक्तो वर्तते। सर्वकारेण आगामिनि 79 विक्रमवर्षे प्रदास्यमानानां सार्वजनिक पर्व प्रतिस्थापनावकाशानां कार्यालय समय निर्धारणस्य च विषयेऽपि निर्णीतं वर्तते। एवमेव सर्वकारेण एतद् विक्रमवर्षीया रेडियो धर्मी नियमावली स्वीकृतास्ति। अद्य महायानी बौद्ध धर्मावलम्बिभिः शेर्पा समुदायेन च 49 ग्याल्पोलोसार नामधेयं नवीन वर्षं सहर्षम् आयोज्यमानं वर्तते। अवसरेऽस्मिन् शेर्पा जातीयाः जनाः परस्परं शुभकामनाम् अभिव्यज्य नवीन वर्षमिदं हार्दम् अभ्यर्थयन्ति। उपलक्ष्येऽस्मिन् शुभकामना सन्देशं ददति राष्ट्रपति विद्यादेवी भण्डारी एवं विधानां पर्वणां माध्यमेन सर्वेषां नेपालीनां मध्ये परस्परं एकता सद्भाव बन्धुत्वानां भावनाया अभिवृद्ध्या अस्माकं बृहद्राष्ट्रियैकताम् अतिरिक्तं सुदृढीकर्तुं साहाय्यम् अवाप्यते इति लिखति। सन्देशे राष्ट्रपतिना भण्डारिणा ग्याल्पोलोसार पर्व सर्वेषु नेपालीषु नवीनोत्साहम् उमांगं च प्रसार्य न्यायपूर्णस्य सभ्यस्य सुसंस्कृतस्य प्रगतिशीलस्य च समाजस्य निर्माणार्थं अग्रेसरा भवितुं प्रेरयतु इति कामना विहितास्ति। उपराष्ट्रपतिना नन्दबहादुर पुन इत्यनेन प्रदत्ते शुभकामना सन्देशे नेपालस्य धार्मिक सांस्कृतिक पर्वोत्सवैः सामाजिक सद्भावं सुदृढीकृत्य राष्ट्रियैकता सबला विधीयमाना स्थिति उक्तं वर्तते। उपराष्ट्रपतिः पुन सन्देशे ग्याल्पोलोसार पर्व नेपालीनां मध्ये परस्परं सद्भावं सामाजिकैकतां भ्रातृत्वं च संस्थापयति इति अपेक्षते। प्रधानमन्त्रिणा शेरबहादुर देउवा विधेन प्रदत्ते शुभकामना सन्देशे नेपालः जातीय भाषिक धार्मिक सांस्कृतिक विविधतया सम्पन्नं राष्ट्रमस्तीति उल्लिख्य अत्र सर्वासां जातीनां स्वस्व विशिष्टासु रीतिस्थिति पर्वोत्सव संस्कृतिषु सतिष्वपि सर्वाभि जातिभि धर्मावलम्बि सम्प्रदायश्च एतस्या विविधतायाः सम्मान प्रकटनं नेपालीनां मौलिक विशिष्टश्च परिचयस्थिति निगदितं वर्तते। प्रधानमन्त्रिणा देवाभिधेन सर्वकारेण 77 ख्रीष्ट वर्षस्य सेप्टेम्बर मासस्य 23 दिवसे आदिवासीनाम् अधिकार सम्बद्धस्य अन्तर्राष्ट्रिय श्रम संगठनस्य प्रावधानम् अनुमोदितमस्ति। एतदनुरूपेणैव महासन्धेः क्रियान्वयनाय सर्वकारः प्रतिबद्धस्थिति उल्लिखितं वर्तते। कोविड 19 महामार्याः अन्तर्भावस्य वर्तमानावस्थायां सावधानतापूर्वकं स्वास्थ्यमापदण्डं परिपाल्य नूतनवर्षं हर्षोल्लासपूर्वकं समायोजितुम् अनुरुन्धानः प्रधानमन्त्री देउवा ग्याल्पोलोसार पर्व राष्ट्रस्य एकताय समृद्धये च एकीभूय अग्रे बलितुं सर्वेभ्यः प्रेरणां प्रदातु इति कामनाम् अभिव्यनक्ति। एवमेव सभामुखेन अग्निप्रसाद सापकोटा विधेन प्रदत्ते शुभकामना सन्देशे पर्वेदम् अस्माकं मध्ये नैकट्याय सम्मान भावाय सबल राष्ट्रियैकतायै च प्रेरणां प्रदाति इति विश्वासम् अभिव्यज्य मौलिक पर्वोत्सवैः अस्माकं विविधतां चिरजीवितां विधातुं साहाय्यं मिलति इति उक्तमस्ति। सर्वकारेण ग्याल्पोलोसार पर्वणः उपलक्ष्ये अद्य आराष्ट्रं सार्वजनिकावकाशः प्रदत्तो वर्तते। अस्यैव फाल्गुनमासस्य 16 दिवसे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य अनुसारेण अवकाशः प्रदत्त इति गृहमन्त्रालयेन ह्यो विज्ञप्तिं प्रकाश्य ज्ञापितं वर्तते। अद्य ग्याल्पोलोसार पर्वणः उपलक्ष्ये सर्वेभ्यः सर्वकारीयकार्यालयेभ्यः सार्वजनिकसंस्थाभ्यश्च अवकाशप्रदानाय नेपालसर्वकारस्य मन्त्रिपरिषदः निर्णीतमिति विज्ञप्तौ लिखितं वर्तते। प्रतिनिधिसभायाः ह्यः उपविष्टे उपवेशे प्रमुख प्रतिपक्षिणः नेकपा एमाले दलस्य विरोधस्य मध्ये सूचनायोगस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतं वर्तते। प्रधानमन्त्रिणः शेरबहादुर देउवा विदस्य पक्षतः विधि न्याय संसदीय विषयमन्त्री दिलेन्द्र प्रसाद बडु राष्ट्रिय सूचनायोगस्य गतार्थिक वर्षस्य वार्षिक प्रतिवेदनमिदं प्रस्तुतवान्। सभामुखेन अग्निप्रसाद सापकोटा विधेन ह्यः प्रतिनिधिसभायाः उपवेशस्य प्रारम्भणस्य घोषणा विहिता। तदनु एमाले दलस्य सांसदैः भाषणमञ्चस्य अग्रे उत्थाय समागोषाः उच्चारिताः आसन्। प्रतिनिधिसभायाः अपरोपवेशः फाल्गुन मासस्य 22 दिवसे रविवासरे दिवा एकवादने वस्ता। विधि न्याय संसदीय विषय मन्त्री दिलेन्द्र प्रसाद बडु कथयति प्रतिनिधिसभायाः आगामिनि उपवेशे प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जवरा इत्यस्य उपरि आक्षिप्तस्य महाभियोगस्य प्रस्तावम् आलक्ष्य विमृक्षते। प्रतिनिधिसभायाः ह्यः उपविष्टस्य उपवेशस्य अनन्तरं संसद भवने पत्रकारैः सह मन्त्री बडु अवदत् नियमावल्याः व्यवस्थानुसारेण प्रक्रिया अग्रे वर्धिष्यते। नेकपा माओवादी केन्द्रस्य केन्द्रीय समितेः उपवेशः श्वः फाल्गुनस्य विंशे दिवसे अवस्था। माओवादी केन्द्रस्य केन्द्रीय कार्यालयस्य सचिवः श्रीराम ढकालः श्वः विंशे दिवसे राष्ट्रिय सभागृहे पूर्वाह्नस्य एकादशवादनाय केन्द्रीय समितेः उपवेशः आहूतोस्तीति अज्ञापयत्। गतपौषमासस्य पञ्चविंशात् दिवसात् भूयो भूयः स्थगिति कृतः केन्द्रीय समितेः उपवेशः श्वः उपवेक्ष्यमाणो वर्तते। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति श्रमजीवी पत्रकाराणां कृते सोत्साहं सामर्थ्येन च कार्य सम्पादनस्य वातावरणं स्रष्टुं सर्वकारः प्रतिबद्धो वर्तते। मन्त्रालये ह्यः न्यूनतम पारिश्रमिक निर्धारण समितेः वार्षिकं प्रतिवेदनं न्यूनतम पारिश्रमिक पुनरावलोकन परामर्श प्रतिवेदनं च गृह्णन् मन्त्री कार्की अवोचत् पत्रकाराणां कार्ये हि समाजेन च अधिकतम लाभ ग्रहणस्य वातावरणं स्रष्टुं सर्वैः भूमिका निर्वोढव्या। तदवसरे मन्त्री कार्की सम्बद्ध सर्वैः पक्षैः विमृश्य समित्या परामिष्टानां विषयाणां क्रियान्वयनाय प्रतिबद्धताम् अभिव्यनक्। न्यूनतम पारिश्रमिक निर्धारण समित्या अर्पिते न्यूनतम पारिश्रमिक पुनरावलोकन प्रतिवेदने श्रमजीवी पत्रकाराणां पारिश्रमिकं प्रतिशतं पञ्चविंशत्या वर्धयितुं सर्वकारः परामिष्टोऽस्ति। गृहमन्त्रिणा बालकृष्ण खाण इत्यनेन सह अमेरिका देशीय राजदूतः रैंडी बेरी ह्यः शिष्टाचार मेलनं अकरोत्। गृहमन्त्रालयं प्राप्य अमेरिका देशीयो राजदूतः बेरी एमसीसी समितायाः संसदा अनुमोदनस्य विषये गृहमन्त्रिणा सह विमृष्टवान्। तदवसरे गृहमन्त्री खान एमसीसी समितायाः विषये अमेरिका देशीयस्य सर्वकारस्य सहयोगाय धन्यवादं व्याहरत्। मेलने राजदूतः बेरी अवदत् नेपाल सर्वकारस्य राजनीतिकदलानां च भूमिकायाः कारणेन समितेयम् अनुमोदिता वर्तते इति व्याहरन् प्रतिनिधिसभायाः व्याख्यात्मक घोषणायाम् आत्मना पूर्वोक्ताः विषयाः समाविष्टाः सन्तीति समस्पष्टयत्। राष्ट्रिय सभायाः अध्यक्षः गणेश प्रसाद तिमलसेना कथयति कोविड 19 विषाणु प्रतिरोधिनः अप्राप्त टीकाकरणेषु जनेषु टीकाकरणस्य प्राप्ते जनप्रतिनिधिभिः राजनीतिकदलैश्च सहजीकरणं विधातव्यम्। स्वास्थ्य जनसंख्या मन्त्रालयेन विश्वस्वास्थ्य संघटनेन च ह्यः काष्ठमण्डपे आयोजिते कोविड 19 प्रतिरोधी टीकाकरण सम्बद्ध संकट संचार सामुदायिक सहभागिता विषयकी कार्यक्रमे अध्यक्ष तिमलसेना अप्राप्त टीकाकरणेषु जनेषु टीकाकरणस्य प्राप्ते जनप्रतिनिधिभिः सहयोगः विधातव्यः इति धारणां प्राकटयत्। कार्यक्रमे स्वास्थ्य मन्त्री विरोध खतिवड़ा अस्य मार्च मासस्य अभ्यन्तरे पञ्चतः एकादश वर्षाणां वयस्समूहस्य बालबालिकाभ्यः टीकाकरणाधानाय पूर्वकार्यं विधीयमानमस्तीति अज्ञापयत्। आराष्ट्रं ह्यः अतिरिक्तेषु शते सप्तविंशत्यां च जनेषु कोरोना विषाणो संक्रमणं पुष्टीभूतं वर्तते। ह्यः शतत्रयम् एकविंशति जनाः कोरोना विषाणो संक्रमणात् मुक्ताः सन्ति। संक्रमणेन ह्यः त्रयो जनाः मृताः। ह्यः आराष्ट्रं 35,788 जनाः कोरोना प्रतिरोधि टीकाकरणम् आहितवन्तः इति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। वाग्मती प्रदेशसभायाः उपवेशः अस्यैव फाल्गुनस्य 29 दिवसे वस्ता। प्रदेशसभायाः सचिवालयेन ह्यः सूचना प्रकाश्य आगामिनि 29 दिवसे उपवेशः वस्तेति ज्ञापितं वर्तते। आसन्न सार्धद्वयमासात् प्रदेशसभायाः उपवेशः पुनः आहूतोऽस्तीति प्रदेशसभा सचिवालयस्य सचिवः कृष्णहरि खड्का ज्ञापितवान्। नेपालस्य चतुर्दश शताब्दीतः सप्तदश शताब्द्यवधिकाः चोरिताः पुरातात्विकसम्पदः ह्यः स्वदेशं प्रत्यानीताः सन्ति इति समाचाराः।